ॐ श्री दुर्गायै नमः। अथ श्री दुर्गा सप्तशती। अथ पञ्चमोऽध्यायः विनियोगः। ॐस्य श्री उत्तरचरित्रस्य रुद्रऋषिः महासरस्वतीदेवता। अनुष्टुप् छन्दः भीमा शक्तिः भ्रामरीबीजम् सूर्यसत्त्वम् सामवेदस्वरूपम् महासरस्वती प्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः। ध्यानम्। ॐ घण्टाशूलहलानि शङ्खमुसले चक्रन्धनुः सायकम् हस्ताब्जैर्दधतीं घनान्तविलसत् क्षीतांशुतुल्यप्रभां गौरीदेहसमुद्भवान् त्रिजगता माधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्। ॐ क्लीं ऋषिरुवाच। पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यैयज्ञभागाश्च हृता मदबलाश्रयात् तावेव सूर्यतां तद्वत् अधिकारं तथैन्दवम् कौबेरमथ चाम्यै च चक्राते वरुणस्य च तावेव पवनर्धि च चक्रतुर्वह्निकर्म च ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां तयास्माकं वरो दत्तो यथापत्सुस्मृताखिलाः भवतान्नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् जग्मुस्तत्र ततो देवी विष्णुमायां प्रतुष्टुः देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मतां रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः। कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैऋत्यै भूवृताल्लक्ष्म्यै शर्वाण्यै ते नमो नमः। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः। या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु चेतनत्यभिधीयते नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu lakshmi rupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu vritti rupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu smriti rupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu dayarupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu tushtirupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu matrurupena samsthita. Namastasyai, 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 namo namaha. Ya devi sarvabhuteshu bhrantirupena samsthita. Namastasyai, 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 namo namaha. Indriyanam adhishtatri bhutanai chakileshu ya bhuteshu satatantasyai vyaptidevyai namo namaha. Chitirupena ya krutsname tadvyapyasthita jagat. Namastasyai, 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 namo namaha. Stutasuraih purvamabhishta samshrayat tatha surendrena dineshu sevita. Karotu sana shubhahetureeshwari shubhani bhadranyabhihantu chapadah. Yasam pratai chodhata daitya tapitai rasma bhirisha chasurair namasyate. Yacha smruta tatkshaname vahantinas sarva pado bhakti vinamra murtibhi. Rushiruvacha evam stavadi uttanan devanan tatra parvati. Snātumabhyāyayautō ye jahnavyānrupanandana. Sābravītān surān subhrūr bhavadbhis stūyate traka. Sharīrakoṣataśchāsyās samudbhūtā bravīt shivā. Stotram mamaitat kriyate shumbhadaitya nirākrutaihi. Devai samitai samare nishumbhena parājitaihi. Sharīrakoṣādyattasyāḥ pārvatyā nisrutāmbikā. Kaushikī इति समस्तेषु ततो लोकेषु गीयते। तस्याः विनिर्गतायां तु कृष्णाभूत् सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया। ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः। ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा काप्यास्ते स्त्रीमहाराज भासयन्ती हिमाचलम्। नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्। ज्ञायतां काप्यसौ देवी गृह्यताय चासुरेश्वर स्त्रीरत्नमति चार्वङ्गी द्योतयन्ती दिशस्विषा। सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति। यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो। त्रैलोके तु समस्तानि साम्प्रतं भान्ति ते गृहे। ऐरावतसमानीतो गजरत्नं पुरन्दरात् पारिजाततरुश्चायन् तथैवोच्चैश्रवाहयः। विमानं हंससंयुक्त मेतत्तिष्ठति तेऽङ्गणे। रत्नभूतमिहानीतै यदासीद् वेधसोद्भुतम्। निधिरेष महापद्मसमानीतो धनेश्वरात् केजल्किनीं ददौ चाभिर्मालामम्लानपङ्कजाम्। छत्रं ते वारुणङ्गेः काञ्चन स्रावितिष्ठति तथायं स्यन्दनवरो यः पुरासीत् प्रजापतेः। मृत्योरुत्क्रान्तिदानां शक्तिरीशत्वयारुता पाशस्सलिलराजस्य भ्रातुस्तव परिग्रहे। निशुम्भस्याभिजाताश्च समस्ता रत्नजातयः। वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी। एवं दैत्येन्द्ररत्नानि समस्तान्यारुतानि ते। स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते। ऋषिरुवाच निशम्येति वच शुम्भस्तदा चण्डमुण्डयोः। प्रेषयामास सुग्रीवन् दूतं देव्या महासुरम्। इति चेति च वक्तव्या सागत्वा वचनान् मम यथा चाभीति सम्प्रीत्या तथा कार्यं त्वया लघु स तत्र गत्वा यत्रास्ति शैलो देशेति शोभने सा देवी तां ततः प्राह श्लक्ष्णं मधुरया गिरा दूत उवाच देवी दैत्येश्वर शुंभस्त्रैलोक्ये परमेश्वरः दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः अव्याहताज्ञस्सर्वासु यस्तदा देवयोनिषु निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत् मम त्रैलोक्यमखिलं मम देवावशानुगाः यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः तथैव गजरत्नैः च हृत्वा देवेन्द्रवाहनम् क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः उच्चैश्रवस संयन्तत् प्रणिपत्य समर्पितम् यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने स्त्रीरत्नभूतान् त्वां देवि लोके मन्यामहे वयम् सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् निशुम्भमुरुविक्रमम् भज त्वयि चैचलापाङ्गि रत्नभूतासि वै यतः परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहताव्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा येदं धार्यते जगत् देव्युवाच सत्यमुक्तं त्वया नात्र मिथ्या केचित्त्वयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो मायि जयति सङ्ग्रामे यो मे दर्पं व्यपोहति यो मे प्रतिबलो लोके समे भर्ता भविष्यति तदा गच्छतु शुंभोत्र निशुंभो वा महासुरः माई जित्वा कीचिरेणात्र पाणिं गृह्णाति मे लघु दूत उवाच अवलिप्तासि मयीवन्त्वं देविब्रूहि ममाग्रतः त्रैलोक्येकः पुमांस्तिष्ठे दग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानां सर्वे देवानवैयुधि तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका इन्द्राद्या सकला देवास्तस्थुर्येषान्न संयुगे शुम्भादीनां कथन्तेषां स्त्री प्रयास्यसि सम्मुखम् सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः केशाकर्षणनिर्धूत गौरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्चातिवीर्यवान् किं करोमि प्रतिज्ञामि यदनालोचिता पुरा सत्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः तदा चक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये देव्या दूतसंवादो नाम पञ्चमो